एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतेः विद्यादेवी भण्डारी वर्तमानावस्थायं सर्वाणि राजनीतिक दलानि मिलित्वा चलितुं बलं ददाति। शीतल निवासस्थिते राष्ट्रपति कार्यालये गतदिने आयोजिते सर्वदलीय उपवेशे राष्ट्रपतेः भण्डारी शिक्षा स्वास्थ्य जलवायु परिवर्तनानां विषयेषु स्वस्य ध्यानम् आकृष्टमस्तीति भाषमाणा स्वस्य बंगलादेश भ्रमणस्य विषये अज्ञापयत्। नेकपा एमाले दलस्य नेता सुभाषचन्द्र नेवांग उपवेशात् बहिर्भवनस्य क्रमे उपवेशे सामयिक विषयेषु विमृष्टमिति पत्रकारान् अबोधयत्। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः उपवेशे नवीन निर्वाचनस्य विषयोऽपि उद्भावितः इत्यवदत्। नेकपा माओवादी केन्द्रस्य नेता नारायणकाली श्रेष्ठ अगदत् उपवेशे सामयिकतायाः जलवायु परिवर्तनस्य च विषयेषु विमृष्टम्। उपवेशे नेकपा एमाले दलस्य अध्यक्ष प्रधानमन्त्री च केपी शर्मा ओली, महासचिव उप प्रधानमन्त्री च ईश्वर पोखरेला, नेता सुभाष चन्द्र नेवांग, अन्य नेतारश्च सहभागिनः आसन्। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा, वरिष्ठ नेता रामचन्द्र पौडेला, महामन्त्री शशांक कोइराला च, नेकपा माओवादी केन्द्रस्य अध्यक्ष पुषकमल दाहाल प्रचण्ड, नेतारौ नारायण काजी श्रेष्ठ, देव गुरूङ छ, जनता समाजवादी दलस्य अध्यक्ष मन्त ठाकुर, नेता राजेन्द्र महतो च उपवेशे सहभागिनः आसन्। उपवेशे पूर्व प्रधानमन्त्रिणा माधव कुमार नेपालः, झलनाथ खनालः, बाबुराम भट्टराई च सहभागिनो नाभवन् इति राष्ट्रपतेः कार्यालयो ज्ञापयति। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली दलीयानुशासनम् पालयितुम् सम्भवगत मेलने सहभागिनो न भवितुम् च दलस्य नेतृन् कार्यकर्तृन् च अनुरोधि। दलस्य केन्द्रीय सदस्यानां सांसदानां जनप्रतिनिधीनां च कृते ह्यो बालवाटार स्थाने आयोजिते चायपान कार्यक्रमे प्रधानमन्त्री ओली अवोचत् दलाभ्यन्तरे अराजकता समूह निर्माणम् च स्वीकार्य नभवत। प्रधानमन्त्री ओली समूहस्य मेलनम् उपवेशम् च आयोज्य दलाभ्यन्तरे उपद्रवस्य अराजकता विस्तारणात्मकं कार्यं विहितं सद् दलस्य विधानस्य राजनीतिक दल सम्बद्धस्य प्रचलित विधेयश्च अनुसारेण दण्डनं विधास्यति इति समस्पष्टयत्। प्रधानमन्त्रिणा ओलिना एकस्मिन् एव दले उषित्वा अराजकतायाः उच्छृङ्खलतायाश्च विस्तारणस्य कार्ये विहिते सति आत्मना प्रसह्य न स्थीयते इति प्रत्यादिष्टम्। प्रधानमन्त्री ओली दलं विचारे केन्द्रीकृत्य एकताबद्धं गतिशीलं च विधातुं सर्वान् अन्वरुणत। प्रधानमन्त्री ओली सर्वोच्च न्यायालयेन विहितं संसदा पुनस्थापन मनु संसदि दृष्टि दलानां गतिविधिभिः सर्वकारेण संसदो विघटनाय विहितस्य प्रस्तावस्य औचित्यं क्रमेण पुष्टिभूतमस्तीति अतर्कयत। प्रधानमन्त्री ओली अवासत संसद अधिवेशनस्य प्रारम्भं मनु प्रथमे एव उपवेश्य अध्यादेशानां प्रस्तुतिकरण सम्बद्धायं वैधानिक व्यवस्थायं सत्यमपि तेषां प्रस्तुतिम् अवरुध्य संविधानस्य क्रियान्वयनाय अवरोध प्रापितोऽस्ति। सभामुखेन प्रतिनिधि सभायाः कार्यसूचीं परिवर्त्य मन्त्रिणाम् अध्यादेशस्य प्रस्तुतिकरणात् निषिद्ध्य सर्वकारः सांविधानिक दायित्वात् बलपूर्वकं वञ्चित इति चर्चयन् प्रधानमन्त्री ओली अगदत् संविधानस्य क्रियान्वयनाय सभामुख एव प्रतिबद्धो न दृष्टः। कार्यक्रमे वरिष्ठ नेत्रोः झलनाथ खनाल, माधव कुमार नेपालयोः समूहस्य नेतारः सहभागिनो नाभवन्। नेपाल कम्युनिष्ट पार्टी एमाले दलस्य महासचिव ईश्वर पोखरेलः दलस्य नाम्नि सूचनां प्रसार्य अद्य स्वश्च आयोज्यमानं राष्ट्रिय मेलनम् आधिकारिकं नास्तीति ज्ञापयति। महासचिव पोखरेला यः विज्ञप्तिं प्रकाश्य अनधिकृतं सम्भवगतं मेलनं न कर्तुं कारयितुञ्च मेलनायोजनायाः भ्रमं न प्रसारयितुं केनचित् तथाविधे मेलने आहुते सति तत्र सहभागिनो न भवितुञ्च नेकपा एमाले दलेन सर्वे नेतारः कार्यकर्तारश्च विशेषेण निर्देश्यन्ते इति ज्ञापितवान्। नेकपा एमाले दलस्य माधव झलनाथ समूहेन परिवर्तिन्यां परिस्थितौ विमृश्य एकीकृत धारणां निर्मातुं देशव्यापी रूपेण दलपंक्तिं तेन आधारेण अग्रे वर्धापयितुञ्च अद्य स्वस्थ राष्ट्रिय कार्यकर्तृ मेलनम् आयोज्यते इति ज्ञापितमस्ति। ह्य ललितपुरे आयोजिते पत्रकार सम्मेलने समूहस्य प्रचार विभाग प्रमुख योगेश भट्टराई दलस्य कठिनावस्थायां विद्यमानतायाः समये सधैर्यं संयमेन च सुदृढैकतया विधानसम्मत रूपेण च सञ्चालन स्वस्वस्थानात् योगदानं कर्तुं दलस्य सर्वान् नेतृन् कार्यकर्तृन् समर्थकान् शुभेच्छुकांश्च अन्वरुणत्। नेपाल कम्युनिष्ट पार्टी माओवादी केन्द्रेण दलाध्यक्ष पुष्पकमल दाहाल प्रचण्ड संसदीय दलस्य नेता प्रचितो वर्तते। संसदीय दलस्य ह्यस्तन उपवेशेन नेता देवगुरूङ प्रमुख सचेतक पदे प्रचित दलस्य उपनेतुः सचेत तकस्य च चयनम इदानीं न कृतम इति नेता वर्षमान पुन अज्ञापयत। उपवेशन राष्ट्रिय सभाया संसदीय दलस्य नेतारी दीनानाथ शर्मा प्रचितोस्ति। एवमेव उपवेशन प्रतिनिधि सभाया चतुर्भ्य राष्ट्रिय सभाया द्वाभ्यां च सांसदेभ्य स्पष्टीकरणं याचितुमपि निर्णीतं वर्तते। प्रतिनिधि सभाया ह्यस्तनोपवेशन सभामुखस्य अनुपस्थितौ अध्यक्षतां कुर्वतां सदस्यानां नामानि मरुनीतानि सन्ति। सभामुखस्य अनुपस्थितौ उपवेशस्य अध्यक्षतां कुर्वत्सु सदस्येषु डाक्टर डीला संग्रौला, मानबहादुर विक्का, राधा कुमारी गेवाली, रेखा शर्मा, रेणु कुमारी यादव, लालबाबु पण्डितः, सोम प्रसाद पाण्डेयश्चेति नेतृणां नामानि मनोनीतानि सन्ति। प्रतिनिधि सभाया अपर उपवेश अस्यैव चैत्रस्य षष्ठे दिवसे दिवा एकवादने वस्ता। प्रधानमन्त्रिणा केपी शर्मा ओलिना वामपन्थी बुद्धिजीविनः प्राध्यापकस्य डाक्टर माणिकलाल श्रेष्ठस्य निधनेन नेपालस्य प्रगतिशीलान्दोलने क्षति प्राप्ता स्थिति उक्तं वर्तते। प्रधानमन्त्रिणा ओलिना ह्यः शोक विज्ञप्तिं प्रकाश्य श्रेष्ठस्य निधनस्य सूचनया आत्मना दुःखम् अनुभूतम्। वामपन्थीनाम् आन्दोलने श्रेष्ठेन प्रापितं योगदानं स्मरणीयम् अस्तीति च उक्तमस्ति। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति, दूरसञ्चार सेवां सहजां स्वल्प मूल्य युताम गुणस्तरीयाञ्च विधातुम सर्वकारेण दूरसञ्चार पूर्वाधार संस्थानस्य स्थापनायै पूर्व कार्यम् विहितं वर्तते। सिंहप्रसादवर्तिनी संचार मन्त्रालय सूचना प्रविधि क्षेत्रस्य विज्ञैः ह्य आयोजितायाम् अन्तरक्रियायाम् मन्त्री गुरूङ अवोचत्, राष्ट्रस्य समृद्धये सूचना प्रविधि क्षेत्रं विकसयितुं शीघ्रं संस्थान स्थापनार्थं पूर्व कार्यं विहितं वर्तते। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ कथयति, संचारकर्मिभिः देशं सन्मार्गे अग्रे नेतुं महत्वपूर्ण भूमिका निर्वूढव्या। चलचित्र पत्रकार संघ नेपालस्य एकविंशति साधारण सभां ह्यः काष्ठमण्डपे उद्घाटयन् मन्त्री गुरूङ समाजस्य अग्रगामी परिवर्तनाय लेखनीं चालयितुं संचारकर्मिणः अन्वरुणात्। नेपाल तैल निगमेन ह्यः पुनः शिला तैलीय पदार्थानां मूल्यवृद्धि वितास्ति। निगमस्य प्रवक्तो विनीतमणि उपाध्यायस्य अनुसारेण गत मध्यरात्रितः क्रियान्वयनत्वेन पेट्रोल डीजल मृत्तिका तैलेषु प्रतिलिटरमितं रूप्यकद्वयेन मूल्यं वर्धापितमस्ति। कोरोना विरोधिनः टीकाकरण केन्द्रेषु जनस्वास्थ्यस्य मापदण्डान् पूर्णरूपेण पालयितुं स्वास्थ्य जनसंख्या मन्त्रालयेन सर्वे अनुरुद्धाः सन्ति।